इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका निधिः तिवारी। अथ वार्ताः। विदेशे सिन्दूराभियाने भारतस्य कूटनीतिक प्रकटीकरणार्थं सप्त स्थापितानां दलानां एकं प्रथमं प्रतिनिधिमण्डलम् अद्य चतुर्णां देशानां यात्रायै प्रस्थास्यति। शिवसेनायाः उपनेतुः श्रीकांत शिन्दे इत्येतस्य नेतृत्वे प्रतिनिधिमण्डलम् अद्य संयुक्तारबामीरात, लाइबेरिया, कांगो लोकतांत्रिक गणराज्य, सियेरा लियोन इत्येतेषां स्थलानां भ्रमणं करिष्यति। बहुदलीयं प्रतिनिधिमण्डलमेतत् आतंकवादं विरुध्य शून्य सहिष्णुतायाः भारतस्य सुदृढ सन्देशेन सह सर्वेषु रूपेषु अभिव्यक्तिषु च आतंकवादस्य सामुख्यं कर्तुं देशस्य राष्ट्रसम्मतं दृढ दृक्पातं च प्रस्तोष्यति। विदेश सचिवः विक्रम मिश्री इत्येषः ह्यः नवदिल्ल्यां संसद भवने त्रयाणां प्रतिनिधिमण्डलानां सदस्यान् सूचितवान् एतस्य सूचनात्मक सत्रस्य पश्चात् वार्ताहरान् संसूचयन् शिवसेनादलीयः नेता श्रीकांत शिन्दे इत्येषः उक्तवान् यत् येन प्रकारेण भारतम् आतंकवादस्य सामुख्यं करोति, पाकिस्तानम् अभिमुखीकरोति च विश्वेन ज्ञातव्यम् इति। प्रधानमन्त्री नरेन्द्रमोदी स्वास्थ्य क्षेत्रे स्वानुभवान्, सर्वोत्तम प्रथा च विश्वेन सह विशिष्टतया ग्लोबल साउथ इत्येतेन वैश्विक दक्षिणेन सह विनिमयीकर्तुं भारतस्य इच्छां प्रकटितवान्। श्रीमोदी वार्तां प्रकाशितवान् यत् वैश्विक दक्षिणं स्वास्थ्य समाह्वानैः प्रभावितं वर्तते। असौ सबलतया कथितवान् यत् भारतस्य दृक्पातः अनुकरणीयः, मापनीयं च, सतत स्वास्थ्य प्रारूपं च प्रस्तौति। प्रधानमन्त्री ह्यः स्विट्जरलैण्ड देशस्य जिनेवायाम् आयोजितायाः विश्व स्वास्थ्य सभायाः अष्टसप्ततितमं सत्रं सम्बोधयन् वक्तव्यमेतं कथितवान्। असौ अग्रे प्रावोचत् यत् स्वस्य विश्वस्य भविष्यं समावेशितायाम् एकीकृत दृक्पाते सहयोगे च निर्भरं भवति इति। प्रधानमन्त्री नरेन्द्रमोदी ह्यः सायंकाले जर्मन चांसलर इत्येतेन शासनाध्यक्षेण फ्रेडरिक मर्ज इत्यमुना सह दौरभाषिकं संवादं साधितवान्। तस्मै च पदभार ग्रहणानन्तरं वर्धापनानि अपि अयच्छत्। अत्रावधौ उभौ नेतारौ भारत जर्मनी देशयोर्मध्ये रणनीतिकं सहभागित्वं प्रबलीकर्तुं स्वप्रतिबद्धतां पुष्टिं कृतवन्तौ। उभौ क्षेत्रीय वैश्विक घटनाक्रमेषु च विचाराणाम् आदान प्रदानमपि कृत्वा आतंकवादस्य विरुद्धे संघर्षे ऐक्यभावस्य भावनामपि अभिव्यक्तवन्तौ। गृहमन्त्रालयेन 26,000 वर्षाय पद्म पुरस्काराय नामांकनम् आमन्त्रितम्। नामांकनम् राष्ट्रिय पुरस्कार पोर्टल इत्येतस्य अन्तर्जाल पुटकस्य माध्यमेन जुलाई मासस्य 31 दिनांकं यावत् प्रेषितुं शक्यते। मन्त्रालयेन निर्दिष्टम् यत् एतस्मिन् उल्लिखिते अन्तर्जाल पटले उपलब्ध प्रारूपे निर्दिष्टम् सर्वं प्रासंगिकं विवरणं सम्मिलितं भवेदिति, यस्मिन् च वर्णनात्मक रूपेण एकम् उद्धरणमपि समाविष्टं भवेदिति। मिजोरम राज्यं पूर्णं साक्षर राज्यं समुद्घोषितम्। मुख्यमंत्री लाल दुहोमा इत्यसौ ह्यः आइजोल नगरे मिजोरम विश्वविद्यालये केन्द्रीय शिक्षा राज्यमन्त्रिणः जयन्त चौधरी इत्येतस्य उपस्थितौ घोषणां कृतवान्। इयम् उपलब्धिः न्यू इण्डिया लिटरेसी प्रोग्राम इत्येतस्य क्रियान्वयनस्य पश्चादेव मिलितास्ति। दिल्ली मन्त्रिमण्डलेन 3 किलोवाट परिमितायाः क्षमतायाः सौर फलकानां स्थापनार्थं 30,000 रूप्यकाणां अनुदानम् अनुमोदितम्। ह्यः मुख्यमन्त्रिणः रेखागुप्ता इत्येतस्याः अध्यक्षतायां मन्त्रिमण्डलस्य सभायाम् अयं निर्णयः कृतः अस्ति। श्रीमती गुप्ता दृढीकृतवती यत् एतत् अनुदानं प्रधानमन्त्री सूर्यघर योजनायाः अन्तर्गतं केन्द्रप्रशासनस्य 78,000 रूप्यकाणां अनुदानस्य पूरकं भविष्यति इति। आईपीएल प्रतिस्पर्धायां ह्यः रात्रौ क्रीडिते द्वन्द्वे राजस्थान रॉयल्स दलेन चेन्नई सुपर किंग्स दलं 600 पराभूतम् इति वार्ताः।